पृष्ठ संख्या 4। यौवंधरायण कर्ण दत्वा कथमिहाप्युक्त सार्यते कुतः। धीरस्याश्रम संश्रितस्य वसतस्तुष्टस्य वन्यैः फलैर्मानहर्ष्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते। उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्वलैर्विस्मितः। कोऽयं भो निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया। वासवदत्ता अय्य को एषो उत्सारेदि। आर्य क एष उत्सारयति। यौगन्धरायणः भवति यो धर्मादात्मानम् उत्सारयति। वासवदत्ता अय्य ण हि एवं वक्तुकामा अहं वीणाम् उत्सा इदव्या होमीति। आर्य न ह्येवं वक्तुकामा अहमपि नामोत्सारयितव्या भवामीति। यौगन्धरायणः भवति एवं निर्ज्ञातानि दैवतान्यवधूयन्ते। वासवदत्ता अय्य तः परिस्मो परिखेदड उपादेदि जह अम परिभव। आर्य तथा परिश्रमः परिखेदं नोत्पादयति यथा अयम् परिभवः। यौगन्धरायणः भुक्तो जित एव विषयो अत्र भवत्या नात्र चिन्ता कार्या कुतः। अन्वये धीरस्य आश्रम संश्रितस्य वसतः वन्यैः फलैः चतुष्टस्य वल्कलवतः मानार्यस्य जनस्य त्रासः समुत्पाद्यते। भोः उत्सिक्तः विनयात अपेतपुरुषः चलैः भाग्यैः विस्मृतः अयं कः। निभृतम् इदं तपोवनम् आज्ञाया ग्रामीकरोति। व्याकरण धीरस्य धैर्ययुक्तस्य अचञ्चलचित्तस्येति भावः। आश्रम संश्रितस्य तपोवनाश्रितस्य वसतः तपोवने वासं कुर्वतः। वन्यैः अरण्योत्पन्नैः फलैः आम्रादिभिः चतुष्टस्य सन्तोषं वाप्त्यस्य। वल्कलवतः वल्कलानि एव वस्त्राणि अस्य इति वल्कलवान् तस्य वल्कलवतः मानहर्ष्य समादरयोग्यस्य जनस्य लोकस्य त्रासः भयं समुत्पाद्यते जन्यते। भोः भट इति यावत् उत्सिक्तः उद्धतः विनयात नम्रतायाः अपेतपुरुषः रहितपुरुषः व्यक्तविनय इति भावः। चलैः अस्थिरैः भाग्यैः भागधेयैः धनादिरूपविभावैः विस्मितः गर्वितः अयं कः एषः कः पुरुषः। निभृतं शान्तम् इदं पुरोवर्तमानं तपोवनम् आश्रमपदम् आज्ञया उत्सारणरूपेणादेशेन ग्रामीकरोति ग्रामसमतां प्रापयति। पृष्ठसंख्या 5। भवति माननीये अनिर्ज्ञातानि अपरिचितानि अवधूयन्ते तिरस्क्रियन्ते परिभवः तिरस्कारः भुङ्क्तोज्झितः पूर्वभुक्तः पश्वात्यक्त इति भावः। टिप्पणी आश्रम संश्रितः द्वितीय आश्रितेत्यादीना द्वितीया तत्पुरुषसमासः। तस्य आश्रम संश्रितस्य वन धनयत धनभिस् वन्यैः अग्रामं ग्रामकरोतीति। कृभ्वस्ति योगे सम्पद्यकर्तरी च्वीह इति सूत्रेण अभूतदभावे वक्तव्यम् इति वार्तिकबलेन च्विह ग्रामीकरोति। उत धन श्रीधन णिच धन लट उत सारयति पूर्वं भुक्तः पश्वादुज्झितः पूर्वकालैक सर्वजरत् इत्यनेन कर्मधारय समासः प्रथमस्य च पदस्य पूर्वनिपातः भुक्तोंझितः। योगंधरायण कान लगाकर, क्या यहाँ भी हटाया जा रहा है? क्योंकि धैर्ययुक्त तपोवन में रहने वाले, जंगली फलों से तृप्त वलकल पहनने वाले, मान के योग्य मनुष्यों को भयभीत किया जा रहा है। अरे यह कौन घमंडी चंचल भाग्यों से गर्वित अविनयी पुरुष इस शांत तपोवन को अपनी आज्ञा से गांव बना रहा है? वासव दत्ता, आर्य यह कौन हटा रहा है? यौगंधरायण, देवी जो धर्म से अपने आप को हटा रहा है। वासव दत्ता, आर्य मेरे कहने का यह अभिप्राय नहीं है, मैं पूछती हूँ क्या मैं भी हटाई जाऊंगी? यौगंधरायण, देवी इस प्रकार बिना पहचाने देवताओं का भी तिरस्कार हो जाता है। वासव दत्ता, आर्य परिश्रम भी वैसा कष्ट नहीं दे रहा है जैसा कि वह तिरस्कार। यौगंधरायण, आपने इस विषय को भोग कर छोड़ दिया है, इसमें चिंता नहीं करनी चाहिए क्योंकि